एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली दशक सप्तकस्य चिरकालिक संघर्षेण प्राप्तानाम् गौरवपूर्णानाम् उपलब्धिनाम् रक्षायै बृहत्तर राष्ट्रिय हितार्थम् एकताबद्धतया अग्रे वर्धितुम् सर्वान् आह्वयति। एकसप्ततितम राष्ट्रिय प्रजातन्त्र दिवसस्य अवसरे गतदिने काष्ठमण्डपस्य टुडीखेल स्थाने आयोजितम विशेष समारोहम सम्बोधयन् प्रधानमन्त्री ओली लोकतन्त्रस्य अवरोधक क्रियाकलाप केनापि न कर्तव्य इति चर्चयन् अभासत स्वल्पतरान् मतभेदान् विस्मृत्य अग्रे वर्धनस्य विकल्पो नास्ति। प्रधानमन्त्री ओली राष्ट्रस्य समृद्धये लोकतन्त्रात् शान्तिपूर्णायाः राजनीतिक प्रणाल्याश्च उपयुक्तः मार्गः अपरः कोऽपि भवितुम् न शक्नोतीति चर्चयन् स्वनेतृत्वस्य सर्वकारः लोकतन्त्रस्य मार्गात् न विचलति, संविधानम् नोल्लङ्घयते, कस्मै उल्लङ्घनाय अवसरम् च न ददातीति अवोचत। प्रधानमन्त्री ओली देशस्य अस्थिरतातः संरक्षणाय नवीन जनादेशाय प्रस्थीयमानम् अस्ति इति स्पष्टीकुर्वन् अकथयत् उद्घुष्टे एव समये निर्वाचनम् सम्पादयितुम् सम्बद्धैः सर्वैः निकायैः गभीरतया दायित्वम् निर्वहणीयम्। विशेष समारोहे राष्ट्रपतिः विद्यादेवी भण्डारी उपस्थिता आसीत्। एवमेव उपराष्ट्रपतिः नन्दबहादुर पुन, सभामुख अग्निप्रसाद सापकोटा, राष्ट्रिय सभायाः अध्यक्षः गणेश प्रसाद तिमलसिन्हा, मन्त्रिणः, राष्ट्रिय सभायाः सांसदाः, उच्च पदस्थाः अधिकारिणः, कूटनीतिक नियोगानां प्रतिनिधयश्च समारोहे उपस्थिताः आसन्। एकसप्ततितम प्रजातन्त्र दिवसस्यैव अवसरे नेपाल प्रज्ञा प्रतिष्ठानेन ह्यः आयोजितम् साहित्यिक सांस्कृतिक कार्यक्रमम् सम्बोधयन् प्रधानमन्त्री केपी शर्मा ओली अगदत् जनतायाः मध्ये गमनाय न केनापि विभेतव्यम्। प्रधानमन्त्री ओली निर्वाचनस्य पूर्व कार्याणि तीव्रगत्या विधातुम् निर्वाचन आयोगस्य पदाधिकारिणश्च निरदिशत्। तदवसरे प्रधानमन्त्री ओली राष्ट्रव्यापी न्याम कविता निबन्ध प्रतियोगितायाम् उत्कृष्ट सर्जकान् पुरस्कार वित्तेन सम्मान पत्रेण च सममानयत्। राष्ट्रपतिः विद्यादेवी भण्डारी ह्यो द्वितीय प्रदेशस्य नवनियुक्ताय प्रदेश प्रमुखाय राजेश झा इत्यस्मै पदगोपनीयतयोः शपथम् अग्राहयत्। राष्ट्रपति कार्यालय शीतल निवासे आयोजिते शपथग्रहण समारोहे प्रधानमन्त्री केपी शर्मा ओली, राष्ट्रिय सभाया अध्यक्ष गणेश प्रसाद तिमलसिन्हा, उप प्रधानमन्त्री ईश्वर पोखरेलः अन्य च उपस्थिताः आसन्। राष्ट्रपतिना मन्त्री परिषदः परामर्शे ह्य एव द्वितीय प्रदेशस्य प्रमुखम् तिलक परिहार इत्यमुम् पदमुक्तम् विदाय रिक्तपदे रौतड निवासी झा नियुक्तः आसीत्। नेपाली कांग्रेस दलेन सर्वकारस्य परामर्शे द्वितीय प्रदेश प्रमुखम् पदमुक्तम् विदाय विहितायाः नवनियुक्त प्रमुखस्य नियुक्तेः विरोधः कृतोऽस्ति। दलप्रवक्त्रा विश्वप्रकाश शर्मणा ह्यो विज्ञप्तिम् प्रकाश्य प्रदेश प्रमुखम् पदमुक्तम् विधाय विहिता नियुक्ति अनुचिता वर्ततेति उक्तम् वर्तते। सर्वोच्च न्यायालय प्रतिनिधि सभाया विघटनस्य विरूद्धे पञ्जीकारितानि आदेशाभियाचन निवेदनानि आदृत्य विहितम् विमर्शनम् ह्यः समाप्तम्। सर्वोच्च न्यायालयस्य सांविधानिक न्यायपीठे विधीयमाने विमर्शने ह्यो न्यायालय सहयोगिनाम् विमर्शनस्य पूर्णतामनु आदेशाभियाचन निवेदन विषयकम् विमर्शनम् सम्पन्नम्। प्रतिनिधि सभायाः विघटनस्य विरोधिषु आदेशाभियाचन निवेदनेषु अन्तिम विमर्शनम् विधाय ह्यो न्यायालयस्य सहयोगी सदस्य वरिष्ठाधिवक्ता गीता पाठक संग्रौला स्वतर्कान् उपस्थापयत्। प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जवरा इत्यस्य नेतृत्वस्य सांविधानिक न्यायपीठेन विमर्शने सहभागिभ्यो विधि व्यवसायिभ्य परश्व सोमवासरम् यावत् विमर्शन सूत्राणि प्रस्तोतुम् समय निर्धारितो वर्तते। न्यायपीठेन आदेशाभियाचन निवेदनानि मंगलवासराय विलोकनस्यैव क्रमे संस्थापितानि सन्ति। परराष्ट्र मन्त्री प्रदीप ग्यावाली गदति संक्रमणकालिक न्यायस्यकृते शान्ति संविधायाः भावनाम् अन्तर्राष्ट्रिय प्रतिबद्धताम् सर्वोच्च न्यायालयस्य निर्णयम् पीडितानाम् भावनाम् राजनीतिक यथार्थताम् च ध्यात्वा समाधानम् अन्वेष्टव्यम्। अनौपचारिक क्षेत्र सेवा केन्द्रेण ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे पीडितानाम् सहज जीवन यापनाय आर्थिक सामाजिक सांस्कृतिक सांस्कृतिकाधिकारान् ध्यात्वैव समाधानम् अन्वेष्टुम् असौ अन्वरुणत। कार्यक्रमे परराष्ट्रमन्त्री ग्यावाली सर्वकारेण विहितम् संसदो विघटनम् अनुचितवत् दृष्टम् सदपि निर्वाचनस्य विकल्पाभावेन राजनैतिक स्थिरताम् मूल्यमान्यते च संस्थाप्य राजनैतिक विकृतेः अन्त्यम् विधातुम् निर्वाचनमेव समाधानम् वर्तते इति विचारम् प्राकटयत्। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देवा भिदेना आगामिनी वैशाख मासे सम्पत्स्य मानस्य प्रतिनिधि सभाया निर्वाचनस्य पूर्व कार्य प्रवर्तयितुं कार्यकर्तारः निर्दिष्टाः सन्ति। नुवाकोटस्य विदुरस्थाने यो दलस्य कार्यालयम् उद्घाटयन् सभापति देवा निश्चित दिनांकेषु निर्वाचनं भविष्यति इति विषये आत्मनः विश्वासो वर्तते इत्यवोचत्। सभापति देवा प्रतिनिधि सभाया विघटनस्य विषये मार्गे न विमर्शनाय सच्चेष्टान् कारयन् अवोचत् न्यायालयस्य निर्णयः कांग्रेस दलेन अभ्यर्थ्यते। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ गदति तथ्य समाचाराणां संकलनं सम्प्रेषणं च संचार संस्थानं दायित्वं वर्तते। ह्य काष्ठमण्डपे राष्ट्रिय समाचार समितेः षष्ठीतमस्य वार्षिकोत्सवस्य समारोहे मन्त्री गुरूङ अवोचत् नै भ्रामकाः प्रतिकूल सन्देश दायकाश्च प्रत्युत परिवर्तनोन्मुखा समाचारः संकलनीयाः प्रसारणीयाश्च। मन्त्री गुरूङ अब्रवीत् परिवर्तनस्य संस्थागतीकरणाय पूर्वजानां योगदानं बलिदानं च सम्मान्य अग्रे प्रवर्धनीयम् इति समाचारः।